क्वचिदथ तपनोपरागकाले पुरिनिदधत् कृतवर्मकामसूनु यदुकुलमहिलावृतस्सुतीर्थं समुपगतोऽसि समन्तपञ्चकाख्यं बहुतरजनताहिताय तत्र त्वमपि पुनन् विनिमज्यतीर्थतोऽयं द्विजगणपरिमुक्तवित्तराशिः सममिलथाः कुरु पाण्डवादिमित्रैः तव खलु दयिता जनैः समेता द्रुपदसुता त्वयि गाढभक्तिभारा तदुदितभवदाहृतिप्रकारैः अतिमुमुदे समम् अन्यभामिनीभिः तदनु च भगवन् निरीक्ष गोपान् अतिकुतुकात् उपगम्यमानयित्वा चिरतरविरहातुराङ्गरेखाः पशुपवधूः सरसं त्वमन्वयासीः सपदि च भवदि क्षणोत्सवेन प्रमुषितमानहृदां नितम्बिनीनाम् अतिरसपरिमुक्तकञ्चुलीके परिचयहृद्यतरे कुचे न्यलैषीः रिपुजनकलहैः पुनः पुनर्मे समुपगतैः इयति विलम्बनाभूत् इति कृतपरिरम्भणे त्वयि द्राक् अतिविवशा खलु राधिका निलील्ये अपगतविरहव्यथास्तदा ताः रहसि विधाय ददाथ तत्त्वबोधं परमसुखचिदात्मकोऽहमात्मेति उदयतु वः स्फुटमेव चेतसीति सुखरसपरिमिश्रितो वियोगः किमपि पुरा भवद् उद्धवोपदेशैः समभवत् अमुतः परन्तु तासां परमसुखैक्यमयी भवद्विचिन्ता मुनिवरनिवहैः तवाथ पित्रा दुरितशमाय शुभानि पृच्छ्यमानैः त्वयि सति किमिदं शुभान्तरैरिति उरुहसितैरपि याजितस्तदासौ सुमहति यजने वितायमाने प्रमुदितमित्रजने सहैव गोपाः यदुजनमहिताः त्रिमासमात्रं भवदनुषङ्गरसं पुरे बभेजुः व्यपगमसमये समेत्य राधां दृढमुपगूह्य निरीक्षवीतखेदां प्रमुदितहृदयः पुरं प्रयातः पवनपुरेश्वर पाहि मां गदेभ्यः ॐ तत्सदिति श्रीमन्नारायणीये चतुरशीतितमं दशकं समाप्तं श्रीहरये नमः रमा रमण गोविन्दा गोविन्दा श्रीकृष्णार्पणमस्तु।